इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः दिव्यानन्द झाः। अथ वार्ताः। पूर्व प्रधानमन्त्रिणः अटल बिहारी वाजपेयिनः शततम जयन्त्यवसरे प्रधानमन्त्री नरेन्द्र मोदी अद्य मध्यप्रदेश यात्रार्थं प्रतिष्ठते। असौ खजुराहे इत्यत्र खजुराहो इत्यत्र बहुविध परियोजनानाम् उद्घाटनम् आधारशिला स्थापनं च करिष्यति। प्रधानमन्त्री राष्ट्रिय दृष्टिकोण योजनायाः अन्तर्गतं देशस्य प्रथमायाः नदीनां परस्पर संयोजन परियोजनायाः केन बेतवा नदी संयोजक राष्ट्रिय परियोजनायाः आधारशिलां च स्थापयिष्यति। एषा परियोजना मध्यप्रदेशस्य उत्तरप्रदेशस्य च विभिन्न जनपदेभ्यः सिंचन सौविध्यानि प्रदास्यति, येन लक्षशः कृषक परिवाराः लाभान्विताः भविष्यन्ति। अस्याः परियोजनायाः कारणात् अस्य क्षेत्रस्य जनानां कृते पेयजलापूर्तिरपि भविष्यति। प्रधानमन्त्री अटल बिहारी वाजपेयी वर्यस्य शततमस्य जन्मदिवसस्य अवसरे प्रेष्य चिटिकायाः पत्रमुद्रायाः च विमोचनं करिष्यति। सः त्रिपञ्चाशदधिकैकशतोत्तरैकसहस्रं यावत् अटल ग्राम सुशासन भवनानाम् आधारशिलाम् अपि स्थापयिष्यति। प्रधानमन्त्रिणा नरेन्द्र मोदिना ह्यः नवदिल्ल्याः नीत्यायोगे प्रतिष्ठितैः अर्थशास्त्रज्ञैः सह आयव्यय संकल्पनायाः प्राक् परामर्श समित्यां सह भागः कृतः। केन्द्रीय वित्तमन्त्री निर्मला सीतारमणः, नीत्यायोगस्य प्रमुखः वीवीआर सुब्रह्मण्यम्, अन्ये च वरिष्ठाधिकारिणः सञ्जातोपवेशने सहभागं कृतवन्तः। श्रीमती सीतारमणः विभिन्न राज्यानां वित्तमन्त्रिभिः, कृषक संघैः, अर्थशास्त्रिभिः, सूक्ष्म लघु मध्यमोद्योग संस्थाभिः च सह परिचर्चां कृतवती। केन्द्रीय वित्तमन्त्री आगामिनः फरवरी मासस्य प्रथमे दिनांके लोकसभायां पञ्चविंशत्यधिक द्विसहस्र षड्विंशत्यधिक द्विसहस्रतम वर्षयोः आयव्यय संकल्पनापत्रं प्रस्तोतुं शक्नोति। राष्ट्रपतिः द्रौपदी मुर्मुः पञ्चसु राज्येषु नूतन राज्यपालान् नियोजितवती। मिजोरमस्य राज्यपालः डॉ हरि बाबू कम्भमपतिः अधुना ओडिशा राज्यस्य नूतनः राज्यपालः भविष्यति। प्राक्तनः केन्द्रीय मन्त्री जनरल वीके सिंहः मिजोरमस्य राज्यपालः भविष्यति। बिहारस्य राज्यपालः राजेन्द्र विश्वनाथ अरलेकरः सम्प्रति केरलस्य राज्यपालः भविष्यति। तत्रैव बिहारस्य राज्यपालः आरिफ मोहम्मद खानः भविष्यति। पूर्व सचिवः अजय कुमार भल्ला मणिपुरस्य राज्यपालत्वेन नियोजितः। उपराष्ट्रपतिः जगदीप धनखड़ः अद्य आरभ्य तेलंगाना राज्यस्य मेडक हैदराबाद नगरयोः द्विदिवसीय यात्रार्थं प्रतिष्ठते। स्वयात्रावधौ श्री धनखड़ः तेलंगाना राज्यस्य टुनिकी नगरे भारतीय कृष्यनुसंधान कृषि विज्ञान केन्द्रे प्राकृतिक जैविक कृषक शिखर सम्मेलने मुख्यातिथिरूपेण अध्यक्षः उपस्थितः भविष्यति। राष्ट्रियोपभोक्तृ दिवसावसरे केन्द्रीयोपभोक्तृ विषयक मन्त्री प्रह्लाद जोशी ह्यः ई वाणिज्यिक मञ्चेषु उद्यमगत भ्रामक प्रथानाम् अभिज्ञानम् उपभोक्तृणां शक्तिकरणं च उद्दिश्य नैकान् उपक्रमान् समारभत। अद्य अखिले अपि विश्वे क्रिसमस पर्व आयोज्यते। अत्र अवसरे राष्ट्रपतिना द्रौपदी मुर्मुना, उपराष्ट्रपतिना जगदीप धनखड़ेन च राष्ट्रवासिनः अभिनन्दिताः। अद्य सर्वत्र एतत् पर्व उपलक्ष्य अनेकविधाः कार्यक्रमाः आयोज्यन्ते। अन्ते क्रीडावार्तासु। भारत वेस्ट इण्डीजयोः मध्ये अनुवर्तमानायाः स्पर्धात्रयात्मिकायाः एकदिवसीय महिला क्रिकेट क्रीडामालिकायाः द्वितीयं द्वन्द्वं भारतेन जितम्। गुजराते वडोदरायां कोटाम्बी क्रीडांगणे गतसायं आयोजिते अस्मिन् द्वन्द्वे भारतेन वेस्ट इण्डीजदलं पञ्चदशाधिकशतधावनांकैः पराजितम्। इत्थं भारतं द्वन्द्वद्वयं विजित्य एतां श्रृंखलां विजितवत्। श्रृंखलायाः तृतीयम् अन्तिमं च द्वन्द्वं शुक्रवासरे आयोजयिष्यते। वार्ताः।